एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। कोरोना विषाणोः संक्रमणात् ह्यः अतिरिक्ताः 44,096 जनाः मुक्ताः सन्ति। अनेन सह अधुनावधि नेपाले कोरोना संक्रमणात् मुक्तानां जनानां समग्र संख्या लक्ष्यम् 28,058 प्राप्यति। स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। अध्यावधिक तथ्याङ्कानाम् अनुसारेण नेपाले कोरोना संक्रमणात् मुक्तानां जनानां संख्यानुपातस्य प्रतिशतम् 10.65% वर्तते। ह्य कोरोना विषाणुना अतिरिक्ताः 17,575 संक्रान्ताः सन्ति। एतदनु नेपाले अधुनावधि कोरोना विषाणुना संक्रान्तानां जनानां समग्र संख्या लक्ष्यम् 68,035 प्राप्ता वर्तते। पुष्टीभूत संक्रमणानां जनानां मध्ये 38,750 जनाः इदानीमपि स्वास्थ्य लाभाय अवशिष्टाः सन्तीति मन्त्रालयेन ज्ञापितं वर्तते। ह्य काष्ठमण्डपोपत्यकायां 1,077 पुरुषाः 81,77 महिलाश्चेति कृत्वा 1,088 संक्रान्तजनाः वर्धिताः सन्ति। एतदनुसारेण अद्यावधि काष्ठमण्डपे 60,242 च, भक्तपुरे 50,560 च, ललितपुरे च 8,69,500 संक्रान्ताः जनाः सन्तीति मन्त्रालयेन ज्ञापितं वर्तते। ह्यो विभिन्नेषु जनपदेषु अतिरिक्ताः 16 जनाः कोरोना संक्रमणस्य कारणेन मृताः इति मन्त्रालयो ज्ञापयति। एतदनु नेपाले कोरोना विषाणोः संक्रमणस्य कारणेन मृतानां जनानां पश्चात्तनी संख्या 20,900 प्राप्यति। स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति। सर्वकारेण भारतस्य उत्तराखण्डस्य देहरादूनवर्तिनी एकस्मिन् विद्यालये विद्यार्थिषु घटितां घटनां प्रति गभीरेण भूयते इति ज्ञापयता नयाँ दिल्ली स्थितात् नेपाली राजदूतावासात् घटनायाः विषये तथ्यम् ज्ञातमस्ति। नेपाली संचार माध्यमेषु सार्वजनिक भूता घटना इव घटना न घटिता, दशसु नेपाली विद्यार्थीषु एव ताडनम् विहितम् इति ज्ञापयन्ति परराष्ट्र मन्त्रालयस्य प्रवक्ता सेवा लम्सालः। गृह प्रत्यावर्तित कामेभ्यो विद्यार्थिभ्यः अनुमतिम् प्रदातुम् विद्यालयः प्रशासनम् तत्परम् अस्तीति अज्ञापयत्। प्रवक्ता लम्सालः अगदत् अभिभावकानां भावनायाः अनुसारेण सहजकर्तुः भूमिकाम् निर्वोढुम् मन्त्रालयः तत्परोऽस्ति। असौ सम्बद्ध निकायेन दूतावासेन च सह परराष्ट्र मन्त्रालयेन सम्पर्के स्थित्वा समन्वयः विधीयमानो वर्तते इति च अज्ञापयत्। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन सह ह्यः परराष्ट्र मन्त्रिणा स्थायी समितेः सदस्येन च प्रदीप कुमार ग्यवालिना मेलवार्ता भीतास्ति। नेकपा दलस्य अध्यक्षद्वयस्य मध्ये संवादस्य अभावस्य अवस्थायाम् अध्यक्षेण प्रचण्डेन सह मन्त्रिणा ग्यवालिना विमृष्टमस्ति। अध्यक्षेण सह नेतु ग्यवालिना सामयिक विषयेषु विमृष्टम्। प्रचण्डस्य स्वास्थ्यावस्थायाः विषये ज्ञातमिति च प्रचण्डस्य संचार परामर्शदाता विष्णु सापकोटा अज्ञापयत्। उद्योग वाणिज्यापूर्ति मन्त्री लेखराज भट्टः भासते सुदूरपश्चिम प्रदेशस्य कञ्चनपुरे शुष्कयान विश्रान्तिस्थलस्य निर्माण प्रक्रिया शीघ्रम् अग्रे वर्धापयिष्यते। कैलाली जनपदस्य गोदावरी नगरपालिकायाः प्रथमवडा क्षेत्रवर्तिनी निवासे ह्यः पत्रकारैः सह असौ अवदत् सर्वकारेण प्राथमिकतया विश्रान्तिस्थलस्य निर्माण कार्यम् शीघ्रम् अग्रे वर्धापयिष्यते। शुष्कयान विश्रान्तिस्थलस्य निर्माणाय मन्त्रालयस्य प्राविधिक समूहेन स्वकार्तिकस्य 16 दिवसे कार्यारम्भ विधेयात्तेति ज्ञापयन् असौ अब्रवीत् दैजीस्थाने औद्योगिक क्षेत्रस्य निर्माणार्थं शिलान्यासस्य पूर्वकार्यम् विधीयमानम् वर्तते। मन्त्री भट्ट कैलाली जनपदस्य हरैया स्थाने विशेषार्थिक क्षेत्रस्य गोदावरी नद्या पश्चिम क्षेत्रे औद्योगिक क्षेत्रस्य लंकिचुवा नगरपालिकाया डुडेझारी स्थाने च औद्योगिक क्षेत्रस्य निर्माणाय पूर्व कार्यार्थमपि अध्ययनं प्रारब्धमस्तीति अवोदयत्। मन्त्री भट्टः अगदत् गेटा चिकित्सा महाविद्यालयः सुदूरपश्चिम क्षेत्रस्य प्रथम चिकित्सा विश्वविद्यालयस्य रूपेण विकासनीयः। राष्ट्रपतेः विद्यादेवी भण्डारिणः विजया दशम्याः कोजाग्रत पूर्णिमायाः दिवसे नवदुर्गायाः दर्शनाय प्रसाद ग्रहणाय च अस्मिन् वर्षे भक्तपुरे अनागमनम् अनु नवदुर्गायाः प्रसादम् राष्ट्रपति निवासे प्रेषयितुम् पूर्व कार्यम् विहितम् वर्तते। कोरोना विषाणोः महामार्याः कारणेन राष्ट्रपतेः भक्तपुरे अनागमनम् अनु देवगणस्य आगामिनि मंगलवासरे नवदुर्गायाः पूजाविधिम् समाप्य प्रसाद प्रदानाय शीतल निवासम् गन्तुम् पूर्व कार्यमस्तीति नवदुर्गा देवगण यात्रा मन्दिर व्यवस्थापन समितेः सचिवः रत्नमान वनमाला अज्ञापयत्। चितवन जनपदे कारयानस्य संघटनेन ह्य एका महिला मृतास्ति। खैरानी नगरपालिकाया ज्यामिरे वर्तिनी पूर्व पश्चिम राजमार्गे कारयानस्य संघटनेन पदयात्री खैरानी नगरपालिकाया द्वितीय वडा क्षेत्रस्य 50 वर्षीया बुद्धिमाया दराई मृतेति चितवन जनपद प्रहरी कार्यालयस्य प्रवक्ता सूर्यबहादुर थापा अज्ञापयत। पूर्व दिशा पश्चिम दिशा प्रति आगच्छत कारयानस्य संघटनेन पारेमार्गम गच्छन्ति आहता दराई उपचारस्य क्रमे चितवन चिकित्सा महाविद्यालय अमृयत इति प्रहरिणा ज्ञापितमस्ति। बुटवल स्थानात् काष्ठमण्डपाय प्रस्थितम् स्कार्पियो यानम् धादिङ जनपदस्य पृथ्वी राजमार्गवर्तिनी सलाङघाटे ह्यो दुर्घटितम् सत् पञ्चजनाः आता वर्तन्ते। स्कार्पियो यानम् मार्गात् अधुनिपत्य दुर्घटितम् आसीत्। आता सर्वे उद्धृताः सन्तीति गजुरी स्थानीय प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब निरीक्षकः युवराज खड्का ज्ञापितवान्। आहतेषु जनद्वयस्य अवस्था गभीरा स्थिति ज्ञापितं वर्तते। पारे हिमालयम् मुस्ताङ जनपदस्य कोविड 19 संकट व्यवस्थापन केन्द्रस्य उपवेशेन अत्यावश्यक कार्यम् विहाय अन्येभ्यो जनपदेभ्य प्रवेशम् रोद्धुम् निर्णीतम् वर्तते। ह्य प्रमुख जनपदाधिकारिणः हीरादेवी पौडेलस्य अध्यक्षतायाम् उपविष्टेन उपवेशेन एतन्निर्णीतम् वर्तते। दाङ वर्तिना लुम्बिनी प्रदेश प्रहरी कार्यालयेन बाल विवाह न्यूनीकर्तुम् अभियानम् प्रारब्धमस्ति। पश्चात्तन समय प्रदेशे बाल विवाह वर्धमान स्थिति कारणेन गतदिनात् बाल विवाह न्यूनीकर्तुम् 15 दिवसीयम् अभियानम् संचालितम् इति दाङ जनपदस्य प्रदेश प्रहरी कार्यालयस्य प्रहरी वरिष्ठोपरीक्षकः राजकुमार वैद्यवारः अज्ञापयत। अल्पवयसि विवाहे विहिते शारीरिक रूपेण मानसिक रूपेण च रोगग्रस्ताः भवन्ति। गृहस्थ हिंसायां वृद्धिः भवति। पारिवारिक सामाजिकार्थिक प्रभावस्य सहजनत्वेन अपराधानां सृष्टेः सम्भावना चास्तीति निगद्य प्रहरिणा अभियानमेतत् प्रारब्धमस्ति। प्रतिवर्षम् आश्विनस्य शुक्ल पूर्णिमायाम् प्रारभ्यमाणानि कार्तिक स्नानम् आकाश दीपदानम् तुलसी विशेष पूजनम् च अद्यतः प्रारभ्यन्ते। आश्विन शुक्ल पूर्णिमातः कार्तिक शुक्ल पूर्णिमाम् यावत् तुलसी मातुः विशेष पूजनेन आकाश दीपदानेन च सौभाग्यम् सम्पत्तिः श्रीश्च प्राप्यन्ते इति धार्मिक विश्वासो वर्तते। रेडियो नेपालस्य पूर्व प्राविधिकोपनिर्देशकः मधुसूदन थापा ह्य षष्टितमे वयसि दिवंगतोऽस्ति। आसन्न 37 वर्षाणि यावत् रेडियो नेपाले विहित सेवा पूर्वोपनिर्देशकः थापा ललितपुर महानगरस्य चतुर्थवडा क्षेत्रस्य एकान्त कुनास्थिते स्वस्य निवासे दिवंगतोऽस्ति। थापाया निधने रेडियो नेपालस्य कार्यकारी निर्देशकेन बुद्धिबहादुर केसी इत्यनेन सहितः रेडियो नेपाल परिवारः हार्दम् श्रद्धाञ्जलिम् शोक सन्तप्त परिवारम् प्रति समवेदनाञ्च अभिव्यनक्ति इति समाचारः।